मम कुटुंबस्य नागदोषपीडा परिहारार्थं प्रार्थनं च करिष्ये प्रार्थनं च करिष्ये प्रार्थनं च करिष्ये अनन्तं वासुकिं शेषं पद्मनाभं च कम्बलम् शङ्खपालं धृतराष्ट्रं तक्षकं कालिकं तथा येतानि नवनामानि नागनां च महात्मना सायंकाले पठेन् नित्यं प्रातःकाले विशेषतः तस्या विषभयं नास्ति सर्वत्र विजयी भवे नागराजाय नमः प्रार्थयामि नमस्करोमि नागराजाय नमः प्रार्थयामि नमस्करोमि नागराजाय नमः प्रार्थयामि नमस्करोमि।